त्रिसुरार्चितलिङ्गं निर्मलभासितशोभितलिङ्गं जन्मजदुःखविनाशकलिङ्गं तत्प्रणमामि सदाशिवलिङ्गम्। देवमुनि प्रवरार्चितलिङ्गं कामदहन करुणाकरलिङ्गं रावणतर्पविनाशनलिङ्गं तत्प्रणमामि सदाशिवलिङ्गम्। सर्वसुगन्धिसुलेपितलिङ्गं बुद्धिविवर्धनकारणलिङ्गं सिद्धसुरासुरवन्दितलिङ्गं तत्प्रणमामि सदाशिवलिङ्गम्। कणकमहामणिभूषितलिङ्गं फणिपतिवेष्टितशोभितलिङ्गं दक्षसुयज्ञविनाशकलिङ्गं तत्प्रणमामि सदाशिवलिङ्गम्। कुङ्कुमचन्दनलेपितलिङ्गं पङ्कजहारसुशोभितलिङ्गं सञ्चितपापविनाशकलिङ्गं तत्प्रणमामि सदाशिवलिङ्गम्। देवगणार्चितसेवितलिङ्गम् भावैर्भक्तिभिरेवचलिङ्गम् दिनकरकोटिप्रभाकरलिङ्गं तत्प्रणमामि सदाशिवलिङ्गम्। अष्टदलोपरिवेष्टितलिङ्गं सर्वसमोद्भवकारणलिङ्गं अष्टतरेत्रविनाशकलिङ्गं तत्प्रणमामि सदाशिवलिङ्गम्। सुरगुरुसुरवरपूजितलिङ्गं सुरवनपुष्पसदार्चितलिङ्गं परमपदं परमात्मकलिङ्गं तत्प्रणमामि सदाशिवलिङ्गम्। तत् प्रणमामि सदाशिवलिङ्गम् तत् प्रणमामि सदा शिवलिङ्गम्।